श्रीशिवाष्टोत्तरशतनामस्तोत्रम् शिवो महेश्वर शम्भुः पिनाकी शशिशेखरः वामदेवो विरूपाक्षः कपर्दीनीललोहितः शङ्करशूलपाणिश्च खड्वाङ्गी विष्णुवल्लभः शिपिविष्टोऽम्बिकानाथ श्रीकण्ठो भक्तवत्सलः भवः सर्वस्त्रिलोकेश शितिकण्ठः शिवाप्रियः उग्रः कपाली कामारिरन्धकासुरसूदनः गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः भीमः परशुहस्तश्च मृगपाणिर्जटाधरः कैलासवासी कवची कठोरस्त्रिपुरान्तकः वृषाङ्को वृषभारूढो भस्मो धूलितविग्रहः सामप्रियस्वरमयस्त्रिजीमूर्तिरनीश्वरः सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः हिरण्यरेता दुर्धर्षो गिरीशो गिरिशो नघः भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः व्योमकेशो महासेन जनकश्चारुविक्रमः रुद्रो भूतपतिस्तानुरहिर्बुध्न्यो दिगम्बरः अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः शाश्वतः खण्डपरशुरजः पाशविमोचकः मृडः पशुपतिर्देवो महादेवो व्ययो हरिः भगनेत्रभिदव्यक्तः दक्षाध्वरहरोहरः पूषदन्तभिदव्यग्रो सहस्राक्षः सहस्रपात् अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः एवं श्रीशम्भुदेवस्य नाम्नामष्टोत्तरं शतम् इति श्रीशिवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्।